ददाति विश्वरूपं दर्शयति। कृष्णः अर्जुनाय दिव्यचक्षुः दत्त्वा विश्वरूपं दर्शयति।
पुनः वदतु भगिनि, न श्रुतं मया, पुनः वदतु पञ्चमवाक्यं, पञ्चमवाक्यं खलु कृष्णार्जुन।
आं भगिनि, कृष्णः अर्जुनाय दिव्यं चक्षुः दत्त्वा विश्वरूपं दर्शयति।
आम् अग्रिम।
धृतराष्ट्रः सञ्जयं पृच्छति युद्ध विवरणं जानाति। धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्ध विवरणं जानाति। सः ईश्वरं जानाति, शान्तिं प्राप्नोति। सः ईश्वरं जानित्वा शान्तिं प्राप्नोति।
जानित्वा
न भगिनि, ईश्वरं ईश्वरं ज्ञात्वा
ज्ञात्वा
ज्ञात्वा प्राप्नोति, शान्तिं प्राप्नोति। अग्रिममपि पठामि वा?
अग्रिममेकं पठतु अर्जुन।
अर्जुनः कर्मफलानि त्यजन्ति, आत्मशुद्धये कर्मं कुर्वन्ति। अर्जुनः कृष्णस्य वाक्यं शृणोति, युद्धाय उत्तिष्ठति। अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति।
आं भगिनि, धन्यवादः।
धन्यवादः
अपर्णा भगिनी।
प्रेषितवती। ऐ सेण्ट् टु अजय महोदय।
आम् चिन्ता मास्तु, मया न पृष्टं, परन्तु आम् नवमं वा
योगिनः कर्मफलानि त्यजन्ति, आत्मशुद्धये कर्म कुर्वन्ति। योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति। सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति।
एकनिमिषं भगिनि, अत्र योगिनः बहुवचनम् अस्ति खलु, योगिनः। सो अत्र त्यक्तवन्तः आगच्छति खलु?
बहुवचने न आवश्यकं भगिनि, तत्र त्यक्त्वा खलु, तत्र इट्स् लैक् अव्यय, अत्र बहुवचन आवश्यकता नास्ति। तत्र एकयोगी और् योगिनः त्यक्त्वा एव सम्यक्, पर बिकास् देर् द क्रियापदम् अस्ति एव खलु, दे हेव् टु हेव् अ क्रियापद, देर् यु गिव् द बहुवचनम् और् एकवचनम्।
सो ऐ यूस् त्यक्तवन्तः वेर् एवर् देर् इस् बहुवचन क्रियापदं, सो इस् इट् राङ्ग्?
या, बिकास् इट्स् अ त्वान्तरूपं आवश्यकम् अत्र खलु, here we have asked for twantarupa, so bahuvachana na avashyakam tatra, twantarupam eva.
Actually I was confused. Okay, dhanyawad.
Because you already have later you will have the kriyapada, right? There you have the, that will karma kartrupadam anusatati kriyapadam khalu, so this is like a kind of a visheshana, so
सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति। सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति। अर्जुनः स्मृतिं लभते, स्वधर्माचरणं करोति। अर्जुनः स्मृतिं लभित्वा स्वधर्मचारणं करोति। सम्यक् खलु लभित्वा
लब्ध्वा धन्यवादः भगिनि.
धन्यवादः भगिनि.
भूमि भगिनि अग्रिम सञ्जय आरभ्य पठतु.
आं नमस्कारः भगिनि. द्वादश. सो जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति. जीवः कर्मफलं भुक्त्वा पुनर्जन्म प्राप्नोति. योगिनः मनः आत्मनि योजयन्ति, ध्यानं कुर्वन्ति. योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति. कर्मबन्धिनः दीयन्ते, पुनः जायन्ते. कर्मबन्धिनः मृत्वा पुनः जायन्ते. नरः ईश्वरे कर्मणां न्यासं कुरुते, शान्तिं प्राप्नोति. नरः ईश्वरे कर्मणां न्यासं कृत्वा शान्तिं प्राप्नोति.
धन्यवादः भगिनि.
धन्यवादः.
हेमाङ्गी भगिनी अग्रिमम्.
ईश्वरः भक्तं त्रायते, धर्मरक्षणं कुरुते. ईश्वरः भक्तं त्रात्वा धर्मरक्षणं कुरुते. भक्तः अद्वेष्टा भवति, ईश्वरं भजति. भक्तः अद्वेष्टा भूत्वा ईश्वरं भजति. ईश्वरः दुष्कृत्यं नाशं करोति, साधूनां रक्षणं करोति. ईश्वरः दुष्कृत्यां नाशं कृत्वा साधूनां रक्षणं दुष्कृतां नाशं कृत्वा साधूनां रक्षणं करोति. धन्यवादः.
दुष्कृताम् इत्युक्ते
इन् द 16th वन् त्रायते विल् बिकम् त्रायित्वा और् त्रात्वा?
त्रात्वा भगिनि.
त्रात्वा. आं धन्यवादः भगिनि.
जया भगिनी अग्रिमं समापयतु अत्र.
नमस्कारः सर्वेभ्यः. मानवाः स्वकर्मणा देवम् अर्चन्ति, सिद्धिं विन्दन्ति. मानवाः स्वकर्मणा देवम् अर्चित्वा सिद्धिं विन्दन्ति. योगी अहङ्कारं त्यजति, शान्तः भवति. योगी अहङ्कारं त्यक्त्वा शान्तः भवति.
अर्चयित्वा मया दृष्टम्. अर्चयित्वा ऐ हव् सीन् अ लाट्. सो अर्चयित्वा तत्र अर्चनं करोति. अत्र अवधेयमपि पठतु भगिनि.
त्वा प्रत्ययस्य त्वा प्रत्ययः इत्यपि व्यवहारः अस्ति.
त्वापत्ययः इत्यपि व्यवहारः अस्ति. त्वापत्ययः त्वाप्रत्ययः. सो कत्वा इस् लैक् इट्स् हार्ड् टु प्रनौन्स् खलु. अतः त्वाप्रत्ययः इति आल्सो योग्यन्ते व्यवहारे. धन्यवादः भगिनि.
क्षम्यतां भगिनि, ऐ डिडन्ट् गेट् द 19th वन् यू सेड् अर्चयित्वा और् अर्चित्वा, विच् वन् इस् रैट्?
अर्चयित्वा भगिनि. कामन्लि ऐ हेव् सीन् अर्चयित्वा. अर्चयति अर्चयित्वा
अर्चयित्वा
अर्चनं करोति खलु. अर्चयति see, archa, that dhatu is used many things, but archayati is commonly used. So, archayitva, archayati,
archayati.
Dosham asti va tatra, archanti, should it be archayanti?
Archanti api asti. I have not seen used that. Archati api asti karo. Architva api asti parantu archaitva I have seen a lot. Architva I have never seen that. That's why I thought archaitva. Archanti api asti. It's not, that's what I said. It's not wrong, but commonly used is archaitva. Common.
Bhagini, the third one also. Sorry.
Kutra.
Sorry, should I ask Bhagini? Should I continue? Sorry to...
No, you were asking something.
Yeah, the third one, Yudde, Shatrun, Jaya. So for Jaya, will it be Jitva only or Jayitva also is correct?
No. Jitva eva, Bhagini. Jitva.
Oh, okay. Dhanyavad.
So it doesn't matter the Purush, right? It's like Pratham Purush or Madhyam Purush. It should be just one form for the Tvant Pratyaya, right?
No, Tvanta Aveya Iva Prayogam Karaniyam. So, it doesn't matter what the... Yeah.
Because Jaya is for Madhyam Purush and if it's like also Jayati, it's a Jitva, right? Okay.
So, Dhatu Kim Asti Tatra Trashtavyam. Hello? What dhatu is there that you have to convert? That's all. You don't have to look at the other things.
Sure.
Okay. Also, Bhagini, I have one question. Now, karoti and kurute. Here, for both the forms, like atmanepadi and parasmepadi, krutva only will be the katva rupam, right?
Krutva, because kru dhatu asti, kalu. Dhatu is the same for karoti or kurute. So, krutva samyakeva.
So, it applies to all atmanepadi and all parasmepadi dhatu, right?
Yes. That's fine. Krutva is, here it's just you are conveying the meaning of the. So, karoti, kurute, dhatu se samana eva, ekameva asti. Ataha. Kritva eva.
Achu, dhanyavada.
Agrimam. सौचिकः खलु राजश्री भगिनी अग्रिमं भवती प्रेषितवती न प्रेषितवती इति मन्ये परन्तु अभ्या पुटसङ्ख्या अत्रैव अस्ति इति
Yeah, it's 142. Fifth one. Shavchikaha.
Patatu bhagini. Astiva bhavatya parsha pustaka asti chet patatu. Patatu bhagini.
Shavchikaha vastram sivyati. Shavchikaha vastram na vayati. Shavchikaha vastram eva sivyati. Vayati na. Simhaha garjati. शुकः न गर्जति सिंहः एव गर्जति शुकः न वृक्षः फलति काष्ठं न फलति वृक्षः एव फलति काष्ठं न सज्जनः उपकारं करोति मूर्खः न करोति सज्जनः एव उपकारं करोति मूर्खः न हंसः
धन्यवादः
भगिनि
आं वदतु भगिनि
पञ्चमं शौचिकः वस्त्रं सिव्यति एव न वयति वा
सौचिकः वस्त्रम् एव सीव्यति न वयति.
सौचिकः वस्त्रमेव सीव्यति वयति न अपि सम्यक् एव. तत्र एकं कुत्र एव गच्छति चिन्ता मास्तु भगिनि, कुत्रापि
चिन्तितवती सौचिकः वस्त्रं सीव्यति एव न वयति.
The meaning changes, right? Meaning changes.
Saujika
vastram. So, the saujika is only stitching the vastra. Saujika is not doing, like, it's na vayati. So, saujika is only doing one work, that is the sivyati work.
Mm. Vastram so eva sivyati, vayati na vayati.
So I also wrote like bhagini, saujikah vastram sivyati eva vayati na. Does it change
vastram
the meaning?
Vastram eva sivyati vayati na api samyak kalu. Vastram eva sivyati vayati na. Tadapi samyak.
Aam bhagini.
Vastram eva sivyati param avyaya vastram eva sivyati vayati na. Tadapi samyak bhagini. So yeah, there can be little confusion, but because Sanskrite words can be interchanged a little bit, so you have to, like, by the circumstances you have to get the meaning. In a sentence they can go here there, but yeah, if you are wanting to convey specific meaning, you can put it differently. सीव्यति सौचिकः वस्त्रं सीव्यति एव वयति न. अत्र देट्स् वाट् दे आर् ट्रैङ्ग् टु से. वस्त्रकः वस्त्रं सीव्यति एव वयति न. और् सौचिकः वस्त्रम् एव सीव्यति. या ऐ थिङ्क् इट्स् कैण्ड् आफ़् सिमिलर् मीनिङ्ग्. अग्रिमे सरामः. कस्य पर्यायः? रामेश्वरी भगिनी अग्रिमं करोतु.
हंसः तरति, मूषकः न तरति. हंसः एव तरति, मूषकः न. मयूरः नृत्यति, शुनकः न नृत्यति. मयूरः एव नृत्यति, शुनकः न. नदी वहति, सागरः न वहति. नदी एव वहति, सागरः न.
धन्यवादः. सरस्वती भगिनी
इति शब्दं प्रयुज्य वाक्यानि पुनः लिखत. अहम् अद्य एव कार्यं पूर्णं करिष्यामि, नवीनः अवदत्. अहम् अद्य एव कार्यं पूर्णं करिष्यति इति नवीनः अवदत्. सत्यम् एव जीवनस्य आधारशीला महात्मा गान्धिः अचिन्तयत्. सत्यम् एव जीवनस्य आधारशीला इति महात्मा गान्धिः अचिन्तयत्.
प्रथमवाक्यं भवती उक्तवती पठितवती करिष्यति इति भगिनि. करिष्यामि खलु तत्र अहं करिष्यामि
करिष्यामि सारी करिष्यामि
You want me to read again?
Ah, no. Chinta mastu. I was just pointing out.
Yeah, yeah, yeah.
Agre
gachitu. Rashtraya idam na mama. Shri Guruji hi chintitavan. Rashtraya idam na mama iti Shri Guruji hi chintitavan. But should I complete this?
Dhanyavada. इति एव योजनीयं तत्र खलु किमपि नास्ति परन्तु कथं योजनीयम् अत्र सर्वं दत्तं सुबोध महोदय अग्रिमं
भवन्तः मह्यं रक्तं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि सुभाषचन्द्रबसुः उद्घोषितवान् भवन्तः मह्यं रक्तं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि इति सुभाषचन्द्रबसुः उद्घोषितवान् बालाः धरयाः पुष्पाणि रवीन्द्रनाथठाकुरस्य चिन्तनम् आसीत् बालाः धरयाः पुष्पाणि इति धरायाः पुष्पाणि इति रवीन्द्रनाथठाकुरस्य चिन्तनम् आसीत्
अत्र अवधेयम् अपि पठतु महोदय अत्र पठतु
यदा कस्यापि अन्यस्य जनस्य ग्रन्थस्य वा वचनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते तदा वचनकथनसन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते यथा अहम् अद्य एव मिलामि इति नरेन्द्रः अवदत्
तत्र संक्षेपरूपेण दत्तमस्ति
धन्यवादः
प्रयोगं कथं करणीयम् इति शब्दस्य धन्यवादः महोदय यत् उषा भगिनी यत् अवधेयम् आरभ्य पठतु भगिनि
आं भगिनि अवधेयम् इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते उदाहरणं लोको भिन्नरुचिः इति पण्डिताः वदन्ति पण्डिताः वदन्ति यत् लोको भिन्नरुचिः यत् इति पदम् उपयुज्य वाक्यानि रचयत परोपकाराय एव मम जीवनं सज्जनाः चिन्तयन्ति सज्जनाः चिन्तयन्ति यत् परोपकाराय एव मम जीवनम् अग्रे पठामि वा
पठतु भगिनि
हितं मनोहारी च वचः दुर्लभम् भारवेः वचनम् अस्ति भारवेः वचनम् अस्ति यत् हितं मनोहारी च वचः दुर्लभम्
धन्यवादः भगिनि
धन्यवादः
वैभवी भगिनी अग्रिमं तृतीयवाक्यम् आरभ्य पृथक् सत्यं
नमो नमः भगिनि सत्यं वद गुरुः शिष्यम् अकथयत् गुरुः शिष्यम् अकथयत् यत् सत्यं वद. कुत्र प्रदर्शनं मां मा पृच्छ. मां मा पृच्छ यत् कुत्र प्रदर्शनं. जाग्रत् उत्तिष्ठत् जाग्रत् स्वामिनः विवेकानन्दस्य उद्घोषः. स्वामिनः विवेकानन्दस्य उद्घोष यत् उत्तिष्ठत् जाग्रत्.
उत्तिष्ठत् संस्कृते लैक् डोण्ट् डू हार्ड् स्टाप् जस्ट् I know it comes by practice, but Hindi, just don't do Hindi. Uttishtata, kalu? Halanta shabda nasti. Halanta chinna nasti, kalu? Uttishtata, jagrata. Puna vadatu?
Swaminaha Vivekanandasya udghoshaha yat uttishtat jagrata.
Uttishtata, jagrata. धन्यवाद भगिनि. एकवार्ताम् अहं लैक् भविष्यत्काले तत्र श्लोकानि दत्तानि सन्ति खलु भगवद्गीतायाः श्लोकान् सर्वे परिशीलितवन्तः वा तत्र अस्ति अत्र लट् लकारस्य आरम्भे द्वितीय अध्यायस्य त्रयस्त्रिंशत् श्लोकतः नवत्रिंशत् पर्यन्तं सर्वे भविष्यत्कालरूपाणि सन्ति. तत्र सर्वे अवलोकनं कृतवन्तः पठितवन्तः वा सर्वे सर्व रक्तवर्णस्य कथं भविष्यत्कालं प्रयोजनं कृतं तत्र इति दत्तमस्ति तत्र. सर्वे अवलोकनं कुर्वन्तु. सी देट् इस् दे आर् ट्रैङ्ग् टु लैक् शो यू वेर् आल् इस् यूस्ड् एण्ड् हौ देट्स् वै वी आर् प्राक्टिसिङ्ग्. सो यू गेट् द प्राक्टिस् आफ् द श्लोक वेर् इट् इस् यू यू स्टार्ट् रेकग्नैसिङ्ग् रैट् एण्ड् देन् यू केन् यूस् इट् इन् डिफ्रेण्ट् सेण्टेन्सस् देट् होप्फुलि यू हेव् आल् गोन् थ्रू दिस्. I wanted to point out, I don't remember whether we pointed this out or you have seen all this, hopefully. Do we want to go over reading this or you are all good? Vaibhavi Bhagini?
We can read by ourselves, Bhagini.
Yeah.
If we want to go ahead.
Yeah. So you can go to Gita Super Site also, or if you want to get into grammar, I have given, right, in that Adhyayana Samagri, I have given, right, Gita Pravesha Vitiya Bhaga, Tatra Sarva Vyakarana Api Asti. If you want the Lakara and what, Vistrutena Dattam Asti Tatra, Tam Pustakam Patatu Asti Chet. So, yeah, that's what I was trying to tell. Because here you have to just look at this and start. So, everywhere, even I think, Agre Api Asti Tatra. Abhyasam Api Dattam Asti. Ashtadasa Adhyaya Api Asti. Bhavishat Kalam Api Asti. Ashtadasa Adhyaya. Kalu, Gitaya Ashtadasa. अधस्तनश्लोकेषु लट् लूपानि कुत्र सन्ति इति सर्वं दत्तमस्ति अत्र. So you have to just, this is all ashyasi. I think you will be trying, you will be very, saralam eva asti tatra. You can start recognizing. So madhyama purushe asti sarva, bhavishat kale api asti tatra. Parishalanam karaniyam matra. So you, they are just trying to say why we are doing bhavishat kala. That is the goal. या पञ्चमी विभक्ति अपि विभक्तिवल्लरे सर्वं कृतवन्तः खलु. किञ्चित् पठामः अत्र एतत् श्लोकान् पठामः. चित्रा भगिनी अस्ति वा अत्र रक्तवर्णस्य आरभ्य पठतु.
नमस्ते भगिनि. एतान् श्लोकान् उच्चैः पठत. विद्या ददाति विनयम्, विनयाद्याति एकनिमिषं,
विनयाद्याति
पात्रताम्, पात्रत्वा धनमाप्नोति. धनाद्धर्मं ततः सुखम्.
तत्र विवरणमपि अस्ति.
विद्या नराय विनयगुणं, विद्या नराय विनयगुणं ददाति. तेन सह नरः अर्थां प्राप्नोति. ततः
अर्हतां प्राप्नोति.
ततः धनं प्राप्नोति. धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति. धन्यवादः.
ददाति विनयं, विनयाद्याति पात्रताम्, पात्रत्वाद्धनमाप्नोति, धनाद्धर्मं ततः सुखम्. अग्रिमम् अनिता भगिनी अग्रिममपि पठतु.
अन्नात् भवन्ति भूतानि, पर्जन्यादन्नसम्भवः, यज्ञात् भवति पर्जन्यो यज्ञः, कर्म समुद्भवः. सर्वे अपि जीवाः अन्यस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति. अन्नं तु वृष्टिकारणेन भवति. यज्ञः, दानं, सत्कार्याणि एव वृष्टेः उत्पादने कारणानि.
धन्यवादः भगिनि. सर्वं लैक् पञ्चमी विभक्ति वयं सर्वे कृतवन्तः. तस्मात् ताभ्यां तेभ्य पुनः करणीयं वा, आवश्यकं वा न इति अहं चिन्तयामि. पञ्चमी सर्वं विभक्तिवल्लर्यां सर्वं कृतं खलु. अग्रे कुर्मः. भवान् अवलोकनं परिशीलयन्तु एतत् सर्वं. अपर्णा भगिनी अवधेयं तत्र पठतु. च च शब्दस्य किञ्चित् परिचयं दत्तमस्ति, किञ्चित् पठतु.
आन् द स्क्रीन्
दृश्यते वा न दृश्यते? च
ऐ केन् सी जस्ट् द फस्ट् टेबल् जस्ट् इन् आन् टाप् आफ् विद्यादत्तं.
अवधेयं न दृश्यते. अवधेयं च इति
न दृश्यते. You can tell me the page in Gita Sopanam. I have the book. Drushyate bhagini. Maybe some problem with my screen.
Maybe. 139 end bhagini. Avadeyam iti
sutra. Aam bhagini. Aam. Cha iti avyayasya prayogah samuchchayah ityarthe bhavati. Udaharanam. Amram seva phalam cha. Mata pita. बाला बालाः च गच्छन्ति.
अत्र समुच्चय इत्युक्ते कलेक्षन् टुगेदर् इति अर्थः. अत्र च इति अवयस्य कुत्र प्रयोगं भवति इति दत्तमस्ति अवधेयत्वेन तत्र. धन्यवादः भगिनि. रिफ्रेश् करोतु इच्छति चेत्. बालकृष्णमहोदय अवधेयम् आरभ्य अत्र पठतु.
अवधेयम् अति इति अव्ययस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः.
अर्थात्र अपि इति अव्ययः खलु. सो सप्तसु विभक्तिषु अपि यु केन् यूस् रैट् सेम्. नथिङ्ग् विल् चेञ्ज्. रूपः परिवर्तनं न भवति तत्र. पठतु श्लोकम् अपि. वदतु किं महोदय?
Common to all vibhakti, irrespective of vibhakti, that avyayam will stand.
Rupam parivartanam, rupa parivartanam na bhavati. Dhanyavada bhavada. Patatu. Agrimam patatu.
Sarvopanishadogavo dogdha gopalanandaraha parso vatsa sudhir bhokta dugdham gitamritam mahat. अत्र उपनिषदः एव गावः, श्रीकृष्णः एव दोग्धा, पार्थः एव वत्सः, बुद्धिमन्तः एव भोक्तारः.
अत्र इट्स् लैक् अ मेटाफर् मेटाफर् महोदय, खलु? अवगतं वा? सो उपनिषत् गावः, दोग्धा, श्रीकृष्णः, खलु? सो पार्थ वत्सः अत्र भोक्तारः सर्व बुद्धिमन्त. हुएवर् विल् बि अण्डर्स्टाण्ड् आल् आर् दे नो बुद्धिमन्त आल् आर् वैस्. So that's
wise
like
people,
a...
Yeah. Wise people enjoy this.
Yeah. So it's, yeah, that's a kind of a metaphor it's given me.
Yeah, so, metaphorically.
Dhanyavada, Madhya.
Dhanyavada.
भगिनी किञ्चित् उपरि गच्छति वा भवती पृष्ठः 139 पृष्ठः क्षम्यताम् आम् किञ्चित् उपरि अत्र no, if you can go still little up. Yeah, here. Atra saptame vakye cha dvivaram upayujya asti kalu sankhyam cha yogam cha. Why is it so? हरि ओम्
ओ म्यूट् मध्ये अस्मि अहं क्षम्यतां भगिनि
चिन्ता मास्तु
साङ्ख्यं च योगं च द्विवारमपि उपयोगं कर्तुं शक्यते भगिनि तथा विद किमपि नास्ति डिफैन्ड् रूल् इव किमपि नास्ति तत्र भगिनि उपयोगं कर्तुं शक्यते एव परन्तु एकवारमपि सम्यक् साङ्ख्यं च योगं च साङ्ख्यं योगं च इति अपि प्रथम च न आवश्यकमपि तदपि सम्यक् एव
अस्तु धन्यवादः
धन्यवादः भूमि भगिनी अग्रिमम् अवधेयं पठतु अत्र
अवधेयम् अपि इति
एव इति दृश्यते वा भगिनि एव इति आरभ्य
एव इति अव्ययस्य प्रयोगः निश्चयः इत्यर्थे क्रियते एतत् अन्यस्य निवारणं करोति एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिः युक्तेषु वाक्येषु शक्यः
सो एव इति इत्युक्ते किं सो इट् इस् स्ट्रेस्सिङ्ग् निश्चयः इति that itself so nischaye nischayena so ityarthe kriyate so you use it when it is definite eva so etad anyasya nivaranam
is it saying that whenever there is a saptami vibhakti it means you can use eva or the saptami vibhakti is showing the eva avyaya
No. Bhagini, atra api saptavi. Are you asking about this? Saptabhi vibhakti bhi. Saptabhi vibhakti bhi.
Like so this. I actually didn't get this one.
Okay. Eva prayogaha api saptabhi vibhakti bhi. So in. Okay. Saptabhi vibhakti. Mm-hmm. All seven vibhaktis. Yukteshu vakyeshu. All the seven vibhaktis you can use same so it will not change because it's aware that all seven vibhaktis you can use that's what it's saying that is a rule for aware right it never changes
dhanyavada
bagini
dhanyavada
so we are just revising a little bit so that we have seen all this right in now you are getting like a better idea right so So, iti api drishtamanta, so you all did the grahapatam api. तत् आवश्यकं नास्ति इदानीम्. अग्रे सरामः. अत्र एका कथा अस्ति, वयं पठामः इति अहं चिन्तयामि. अत्रापि चतुर्थी विभक्ति रूपाणि सन्ति, तत्र अवलोकनं करणीयम् अत्रापि. गीतामध्ये अस्ति एतान् श्लोकान् अवलोकनं करणीयम् अत्र चतुर्थ. परन्तु अत्र कथां पठामः, सर्वम् उपयुज्य कथा अस्ति अत्र पठामः. हेमामिगे भगिनी आरम्भं करोतु.
अन्धाय अनन्धाय देहि. एतां कथां सावधानतया पठत. पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. क्षम्यतां भगिनी, ध्वनिः श्रूयते वा? मम पुत्री मै डाटर् इस् बिहैण्ड् मी.
भवती म्यूट् मध्ये गच्छतु भगिनी, चिन्ता मास्तु. धन्यवादः भगिनि.
धन्यवादः.
जया भगिनी अग्रिमवाक्यत्रयं यत् पठतु.
Akshayamitam Bhagini, I have to close the book, but what's the page number I lost it?
Suvarchala Arabhya, Tritiya Vakyam.
Tritiya Vakyam? Okay. Suvarchala, Suvarchala yada praptavayaska jata tada devalaha putrim kasmai dadami iti चिन्ताकुलः अभवत्. अग्रिमं करोमि वा?
अग्रिमवाक्य.
तदा सुवत्सला एव पितरम् उक्तवती, पितः माम् अन्धाय आनन्दाय देहि इति.
किमपि वदति वा, किमपि विवरणं करोति वा? पुरा रक्तवर्णस्य सर्वे अव्ययानि सन्ति. ओके, पुरा यदा तदा सर्वाणि. सो पुरा देवलः न, किञ्चित् वदतु अत्र देवल.
प्राप्तवयस्का जाता. प्राप्तवयस्का इत्युक्ते न जानामि भगिनि.
रैट् एज् प्राप्तवयस्का मीन्स् हि गाट् आन् टु द एज् मीन्स् यदा देवल पुत्रीं लैक् शी केम् अपान्.
रैट् एज् ओके जातं. तदा देवलः पुत्रीं कस्मै ददामि. हौ ऐ केन् गिव् मै डाटर् इति चिन्ताकुलः अभवत्.
हूं कस्मै इत्युक्ते हूं भगिनि?
हूं हू टु हूं गिव् मै डाटर्. तदा सुवर्चला एव पितरम् उक्तवती. सो शी सेड् टु पितरं, हर् फादर्, माम् अन्धाय आनन्दाय देहि इति. Is it like andhaya is like a blind?
Andhaya, yeah, blind. Anandhaya means
anandhaya.
Virudha, आनन्दाय
ब्लैंड और विथ आई व्हाट वाज इट भगिनी क्षमता
सो ही कैन सी ही इज अंधा ही इज ब्लाइंड एंड ही कैन सी अंधाय आनन्दाय
देहि
वदति
ओके
धन्यवाद भगिनी
ओके धन्यवाद
राजश्री भगिनी अग्रिमं पठतु
तत् श्रुत्वा देवलः अवदत् पुत्री किमर्थम् उन्मत्ता इव वदसि इति सुवर्चला अवदत् पितः नाहम् उन्मत्ता इव वदामि सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहमेव तेषु योग्यं चिनोमि इति शुड् ऐ रीड् फर्दर् ओर्
वदतु अत्र
तत् श्रुत्वा देवलः अवदत् सो हियरिङ्ग् द डाटर् से दट् मामा दिस् अन्धाय अनन्धाय ब्लैण्ड् अण्ड् नाट् ब्लैण्ड् पर्सन् गिव् मी टु अ ब्लैण्ड् नान् ब्लैण्ड् पर्सन् the father devalaha says avadat kimartham unmata unmata I think is mad so kimartham why are you for what reason are you talking like a mad person
intoxicated unmata is like yeah madamatti so it's like high or something like that
yeah and swachala avadat pitah so she says I am not is drunk or naham unmata I am not speaking like a drunk person I am telling the truth bhavan ebhyah mam datu to whoever you think of you're thinking of giving me to those kind of rishikumaras you bring them here I will look at their yogyam their eligibility and I will choose so that is what
is to yogyam chinomi it dhanyawad bhai
dhanyawad
saraswati bhagini agrima parichedam patatu yatvam arabhya patani
tam yata vadasi tatha iti uktva devalah tadrushan rushikumaran आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् सो वाट् एवर् यु से लेट् इट् बि लैक् देट् वाट् यु से लैक् देट् देन् ही सेड् देवलः सेड् लैक् देट् अण्ड् देन् ही वाण्टेड् टु सर्च् फार् देट् दट् कैण्ड् आफ् Rushiputras or the Rushi, the sons of Rushis, to bring such kind of people, he asked all his Shishyas or disciples, he sent all his disciples from the ashrama. Devalasya prabhavam सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमारः तां परिणेतुम् आगताः सो
कुमाराः
कुमाराः देवलस्य प्रभावं आफ्टर् हियरिङ्ग् the announcement right prabhavam means announcement
no prabhavam means influence
okay.
prabhavam
okay yeah influence khyatim I didn't understand shivachalas
he was famous
fame So after hearing the influence, the Devala's influence and Shuvachala's fame, listening to them, many Rishi Kumaraha, or many sons of Rishis to marry. Tom is your Shuvachala's. They came to marry Shuvachala, Parinetu. Kuman Prithyaya. Right? They came to marry her.
Devala. Sarva Raktavan.
Kshamyatam Bhagini, you were saying something?
No. Raktavarnasya Sarvam Parishilam Karotu Sarve. Sarva avyayani dattani santi tatra khalu satata utvastva netum tumunnatyatra parinetum devalah patitavati va tatra devalah tan sarvan
yeah I will write devalah tan sarvan vidivat sampujya putrim अवदत् पुत्री एतेषु योग्यं वरय तस्मै ऋषिकुमाराय त्वां दास्यामि इति देन् ही सेड् तान् सर्वान् आफ्टर् लुक् Sampuji, gathering everybody, then he told his daughter, all these are eligible bridegrooms. These, etasmai is Chaturthi Vibhakti. Etasmai, you say, I am giving you Dasyami, Shikumaraya Twam. I'm giving you to these Rishikumaraha.
Tasmai, amongst them. Rishikumaraya, who is the him, I will give him. But Sampuja ityukte, Vidivat Sampuja means whenever you get guests, you are going to do all the not puja, actually you will atithi satskaram karoti khalo sampuja ityukte pujam karoti ityukte atra vidivat he is going to do all atithi satkara then putri mavadat tata vidartha bhaginat dhanyavad bhagini
dhanyavad
subodh mahodaya agrima parichedam patatu
आं महोदय थैंक यू सुवर्चला तान् दृष्ट्वा उक्तवती भवत्सु यः अंधः अस्ति अनंदः अस्ति तस्मै पिता मां दास्यति इति ऋषिकुमाराः तस्याः वचनं श्रुत्वा विस्मिताः जाताः ततः सर्वे परस्परं मुखं दृष्ट्वा असंतोषेन देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः ततः सुवर्चला संतोषेन पितृगृहे एव आसीत् सुवर्चला looked all of them and then said among you people here who is blind and not blind whoever is blind and not blind my father will give it to him
mam dasati give me to him
give me to him so all the rishikumara all the sons of rishis after listening to her words they were all kind of shocked and then they looked at each other's face and then they were really unhappy, and then they were using bad words with bad words, and they were cursing Devala, and then they went off to their own places or where they came from. Then afterwards, Suvachara was very happy, and she was she stayed back at her father's place.
So, sarma raktavarnasya sabdani avyani avalokanam karotu. Shrutva asti drishtva tataha eva ninditva. Vismita means patra ascharam. Vismita ascharya chakita. Dhanyavada mole.
Thank you.
Usha bhagini agrima. Atta arabhya iti bhagini. Atta arabhya patata.
Aam bhagini. अथ कदाचित् श्वेतकेतुः नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान् यत्र देवलस्य आश्रमः आसीत्. आफ्टर् दट् आफ्टर् सम् टैम् One Rishikumara named Shvetaketuhu, and he was also an expert in Nyaya Shastra, heard about everything and came to the ashram, Devalas ashram. Atra katachit shrutva yatra tatsarvam avyaya rupani. Devalas. देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान्, उद्धालकस्य पुत्रः एषः श्वेतकेतुः महाप्राज्ञः अस्ति, एतं वरय इति सुवर्चला तत् श्रुत्वा कुपिता अभवत्. तदा श्वेतकेतुः ताम् अवदत् अहम् अन्धः अस्मि, अनन्दः अपि अस्मि इति. तत् कथम् इति सुवर्चला अपृच्छत्. सो अगेन् देवल आनर्ड् हिम् दट् इस् दिव्य अतिथिसंस्कारम् एक्सेट्रा अण्ड् ही टोल्ड् हिस् डाटर् ही इस् उद्धालास् son, and he is also a great scholar, and so you please marry him. On hearing this, Suvarchala was angry. At that time, Shvetaketu told her, aham andaha asmi, anandaha api asmi iti. Suvarchala asked back, how was that? Again, atra, sampujya, shrutva, tada, api, iti, etani sarvani, aveya padani. Dhanyavada.
Vaibhavi bhagini agrimam? Shweta ketu arabhya.
आं भगिनि. श्वेतकेतुः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि, शृणोमि, जिघ्रामि वा. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति, नाहम्. अतः अहम् अन्धः, किन्तु मम कदापि संशयः न भवति. अतः संशयभावरूपं चक्षुः मम अस्ति, अतः अहम् अन्धः अनन्दः, एवम् अहम् अन्धः अनन्दः अपि इति. सो श्वेतकेतु सेस्,
वदतु.
हि सेस् दट् गाड् परमात्मनः कारणादेव जीवात्मा आई कैन सी आई कैन लिसन अंडरस्टैंड
जिग्रामी इत्युक्ते स्मेल् भगिनि जिग्रामी
स्मेल् परमात्मा आल्सो परमात्मा ओन्ली चक्षुः अर्थं
नयनं भगिनि ऐ नेत्रं
सो परमात्मा इस् ऐस् इस् दट् वाट् इट् मीन्स् भगिनि
या परमात्मा एव चक्षुः मम चक्षुः मम न तत्र नास्ति मम चक्षुः परमात्मा एव मीन्स् दे गाड् ओन्ली मै ऐ
ओके वस्तुतः सः एव पश्यति सो इन् रियालिटि ऐ केन् सी देट्
नो सः एव पश्यति हु गाड् ओके वस्तुतः हियर् इट्स् लिटिल् फिलासोफिकल् दत्तमस्ति वस्तुतः सः एव पश्यति इन् रियालिटि हि ओन्लि सी रैट् वस्तुतः सः मीन्स् हि हु इस् हि परमात्मा अग्रिम
अतः अहम् अन्ध सो देट्स् वै ऐ एम् ब्लैण्ड् किन्तु मम
अत्र सः एव पश्यति न अहं सो हि ओन्लि सी इस् नाट् मी अतः अहम् अन्धः अग्रिमम्
किन्तु मम कदापि संशयः न भवति सो ऐ नेवर् डौट् देट् अतः संशयभावरूपः चक्षु मम अस्ति
संशयाभावरूपं चक्षुः मम अस्ति संशय अभाव
लैक् फेत्
संशयस्य अभाव मीन्स् ऐ डोण्ट् हाव् एनि डौट् दट् ऐ इस् मैण्ड् बट् ही इस् सीयिङ्ग् मी सो ही इस् गेटिङ्ग् फिलासोफिकल् हियर् दट्स् ओके संशय अभावं सो ऐ डोण्ट् हाव् एनि डौट् दट्स् वाट् ही सी संशय मीन्स् डौट् रैट् Abhava means scarcity. So I don't have any doubt. That's what he's saying. Bhava Rupam Chakshu. My eye is like that. So I don't have any doubt. Patatu.
Aham Anandha. So I am not blind. Evam Aham Andha Anandha Api Iti. So that's why I am blind and not blind also.
Dhanyavada. So it's little philosophy. So you got it, right? He says, since it's God, so I am blind, but it's my eyes, that way I am not blind. So both I am Andha, Ananda, Api, Asmi, Iti. Dhanyavada, Bhagini. Rameshwari, Bhagini, Agrima, Samapam, Shweta Ketu.
Shweta Ketu ho Uttarena. सुवर्चला नितरां सन्तुष्टाः अभवत् सा पितरम् अवदत् पितः एषः मह्यं रोचते मया एषः वृत्तः अस्ति माम् एतस्मै ददातु इति
वृत्तः अस्ति
वृत्तः अस्ति देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान् सुवर्चला श्वेतकेतोः सहधर्मचरी अभवत् तौ दम्पती दीर्घकालं यावत् सुखेन गार्हस्थ्यम् आचरितवन्तौ एतस्मिन् पाठे कानिचित् अव्ययानि वर्णाक्षरैः दर्शितानि सन्ति So she is very happy with the answer given by Shvetaketu. So she told her father that she likes him and she want to marry him. Then father also happily allowed them to get married and then they live happily.
Vrata ityukte atra vridhatu bhagini chu maya esha vrata, I have chosen him. Tatavida artha atra mam tasmai dadatu mam agrima
bhagini vrutah ityukte choose,
yeah. वृत्तः अस्ति मया एष अत्र कर्मणि प्रयोगम् अस्ति खलु मया एष वृत्तः
समापितवती
वा धन्यवादः
धन्यवादः
अत्र किञ्चित् अवधेयं शिवलिङ्गेषु अस्ति अत्र अपि चित्रा भगिनी अवधेयं पठतु अत्र
हां भगिनि अवधेयं त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तत् अव्ययम् सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन् व्येति तदव्ययम् तदव्ययं यथा त्रिषु लिङ्गेषु कृष्णः अपि युज्यते पृत्ना अपि युज्यते सैन्यम् अपि युज्यते सप्तसु विभक्तिषु कृष्णः अपि तुष्यति कृष्णम् अपि पश्यतु भवान् कृष्णेन सह अपि गच्छामि कृष्णाय अपि देहि कृष्णात् अपि स्वीकरोतु कृष्णस्य अपि अनुग्रहम् इच्छामि कृष्णे अपि भक्तिः अस्तु
धन्यवादः
पठामि वा धन्यवादः
अत्र अव्यय किम् अस्ति अत्र श्लोकः अस्ति अत्र त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति विकारम् इत्युक्ते इट् विल् नाट् चेञ्ज् ओके तदैव तिष्ठति तत् अव्ययं श्लोकः अस्ति अत्र उदाहरणमपि दत्तमस्ति त्रिषु लिङ्गेषु विभक्तिषु कत्र अस्ति कृष्ण कृष्णं कृष्णेन कृष्णाय कृष्णात् कृष्णस्य कृष्णे सर्वे परिवर्तनमेव न भवति अत्र अनिता भगिनी अग्रिमं हेमाङ्गी भगिनी अस्ति वा आगतवती वा
आम् अहम् अस्मि भगिनि इदानीं मम कन्या अत्र नास्ति धन्यवादः आम् त्रिषु वचनेषु योधः अपि युद्धं करोति योद्धौ अपि युद्धं कुरुतः योद्धाः अपि युद्धं कुर्वन्ति एतेषु सर्वेषु वाक्येषु अपि इत्यस्य कोऽपि विकारः नैव जातः तत् सर्वत्रापि समानतया एव अस्ति अव्ययानि एवमेव तिष्ठन्ति
त्रिषु वचनेषु एव परिशीलनं करोतु अत्र खलु परिवर्तनं विकारं न भवति अत्र उपयोगं तथा एव करणीयं धन्यवादः भगिनि
धन्यवादः
यथा तथा अत्र अनिता भगिनी अत्र पठतु श्लोकं पठतु यथा तथा कत् उपयोगं कत् कथमस्ति अत्र परिशुद्ध
आं भगिनि यतौ यतौ श्लोकौ उच्चैः पठत यथा देशस्तथा भाषा यथा राजा तथा प्रजाः यथा भूमि यदा भूमि तथा तोयम् यथा बीजस्तथा अङ्कुरः यथैधांसि समित भो वत्नि
भास्मासाङ्गुनः
नानिक्निः सर्वकर्माणि भस्मासात् कुरुते तथा
धन्यवादः भगिनि. सो यथा तथा कथा प्रयोगं करणीयम् इति. धन्यवादः. यत्र तत्र सर्वम् अवगतम् इति. यत्र पुष्पाणि सन्ति तत्र यत्र तत्र सरलमेव. तत्र सर्वं श्लोकान् दत्तमस्ति कत्र उपयोगं कृतम् इति. अष्टादश अध्याये अस्ति तत्र. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धः. बालकृष्णमहोदय पठति वा एतान् श्लोकान् उच्चैः पठति. अस्ति वा
यत्र यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र त्रीर्विजयो भूतिः ध्रुवा नीतिर् मतिर्मम. योगेश्वरः कृष्णः धनुर्धरी अर्जुनः च यत्र धनुर्धारी अर्जुनः च यत्र भवतः तत्र लक्ष्मीः विजयः सम्पत् अचला नीतिः च निश्चयेन भविष्यति इति मम अभिप्रायः. यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवाग्विपरि पूर्णलोचनं बाष्पवाविपरि पूर्णलोचनं मारुतिं नमत राक्षसान्तकम्.
अत्र 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 एकः श्लोकः अस्ति. वदतु.
रामचन्द्रस्य कीर्तनं भवति तत्र तत्र हनुमान् भवति. सः मस्तके अञ्जलिं निधाय तिष्ठति. तस्य नेत्रे बाष्पजलेन पूर्णे भवतः. तस्य राक्षसनाशकस्य हनुमतः नमस्कारं कुर्वन्तु.
अन्वये अपि दत्तमस्ति यत्र यत्र कथा उपयोगं करणीयं कथम् उपयोगं करणीयम् अस्ति.
एकनिमिषं भगिनि, किञ्चित् उपरि गच्छति वा? धन्यवादः. सः मस्तके अञ्जलिं निधाय तिष्ठति इत्युक्ते किम्?
अञ्जलि इत्युक्ते अञ्जलिबद्ध, लैक् फोल्डेड् हेण्ड् भगिनि. निधाय हील् स्टाण्ड् लैक् दाट्
अस्ति अत्र. ओके, सो like he is namaskar krutva, he is standing like that, putting his head, folded his hands, putting on his head, and he is standing like that.
Yeah, he is standing with the folded hands. That's what
exactly means. Okay, okay. And Bashpa Jalena Purna?
Bashpa Jala, it is teared eyes.
Ah, so it is called Bashpa Jalena?
From eyes, the water is watering eyes. You can say Bashpa Jalena Purna Bhavata. Tasya Netre, Bashpa Jalena Purne Bhavata. So their netre means dvivachane asti kalu atra bashpa jalena bhavatu.
So we can use this word anywhere, bashpa jalena, like balika bashpa jalena rodanam karoti, like that.
Yeah, you can use it. Is that yeah bashpa jalam ityukte yeah tear actually it is.
Okay, dhanyavada.
ओके समापयाम इति मन्ये सर्वं परिशीलनं कृतवन्तः अद्य सो द मोरल इज यू हैव टू जस्ट सी वेयर ऑल दे हैव ऑल गिवन वेयर ऑल द विच श्लोकास आर वेयर ऑल द वॉट एवर वी हैव यूज्ड ऑल दिस वेयर विच श्लोकास इन गीता दे हैव यूज्ड एंड इफ यू वॉन्ट टू गो मोर डीप इन टू इट गीता प्रवेशम आनयतु सो Once in a while there are mistakes, otherwise it's pretty, like even with dhatu and every word they have given grammar explanation. Sandhi also. If you want a sandhi class, you have to, Gita Pravesha Prathama Bhagam Sandhi Asti Atatra. That also you can read or you can, I think you can enroll into a sandhi class if you want. But here they have given, like they separated it out and they have given sandhis also. So that book also, I think I have given it in Adhyayan Samagri. So should be good. Okay.
Hari Om.
I can hear you, Bhagini, but I can't hear anybody else.
Yeah, same here.
All of you only.
I can hear
you both.
Yeah.
I can hear you.
The Bhagini got muted. Sarla Bhagini.
Yeah, probably she got muted or disconnected. Something happened.
No, if she disconnected, that presentation is there, no?
Yeah.
But there are two connections. Presentation, I think they are using this B Dina Bandhu and the.
Okay, it may be muted.
Yeah.
Muted. Once she told me.
No, she is typing. Can you hear me?
Yeah,
no, Bhagini, we cannot hear you, Bhagini.
No, we can type that, no? So we can finish it with the...
Say the shloka.
Yeah, we can just say, yeah.
Yeah, we can just say.
Yeah.
Sarve bhavantu
sukhinah. Sarve bhavantu niramayah. Sarve bhadrani pashyantu. Ma kashchid dukkhabhavet. Shanti, 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 shanti.